इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। संसदः उभयोः सदनयोः राष्ट्रपतेः द्रौपदी मुर्मू वर्यायाः अभिभाषणानन्तरं धन्यवाद प्रस्तावे चर्चा अभवत्। भारतीय जनता पार्टीति दलस्य सांसदः अनुराग सिंह ठाकुरः चर्चायां प्रतिभाग्यं कुर्वन् गत दशवर्षेषु प्रशासनद्वारा विभिन्न क्षेत्रेषु कृतोपक्रमाणां प्रशंसाम् अकरोत्। तेनोक्तं यत् अर्थव्यवस्थायां वृद्धिः जनकल्याणकार्याणि च प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे प्रशासनद्वारा समुत्थापित पदक्षेपस्य परिणामः वर्तते। इतः पूर्वं विपक्षीय नेत्रा राहुलगांधिना नीट परीक्षायां कथितरूपेण संजात अनियमिततानां प्रसंगोऽपि समुत्थापितः। तेनोक्तं यत् राष्ट्रस्य संसदा विद्यार्थिभ्यः एकः सन्देशः गच्छेन् यत्र नीटेति विषयः संसदेऽपि महत्वपूर्णः अस्तीति। श्रीराहुलगांधी स्वकीये वक्तव्ये अग्निवीर मणिपुरादि विषयान् अपि उत्थापितवान्। उभाभ्यां सदनाभ्यां भारतीय क्रिकेट दलद्वारा 20-प्रतिविंशतिः पुरुष विश्वचषक स्पर्धा जये भारतीय दलाय वर्धापनानि प्रदत्तानि। 23-2000 त्रयः नूतन आपराधिक विधयः भारतीय न्याय संहिता भारतीय नागरिक सुरक्षा संहिता भारतीय नागरिक सुरक्षाधिनियमश्च ह्यः आरभ्य प्रवर्तन्ते। केन्द्रीय गृह मन्त्रिणा अमित शाहेन प्रोक्तं यत् त्रयोपि आपराधिक विधयः राष्ट्रे सर्वाति नूतनतमाम् आपराधिक न्याय प्रणालीं समारप्स्यन्ति। तेनोक्तं यत् आपराधिक न्याय प्रणाली सम्प्रति पूर्णतया स्वदेशीया वर्तते। स्वातन्त्र्यानन्तरञ्च भारतीय लोकाचारे अन्तर्निहिता वर्तते। विधित्रयस्य विषये भाषमाणः गृहमन्त्री नवदिल्ल्यां वार्ताहरान् अवोचत् यत् नूतनविधयः त्वरितन्यायेन सह पीडितानाम् अधिकारान् च निश्चयीकरिष्यन्ति। गृहमन्त्रिणा प्रोक्तं यत् प्रशासनेन नूतन प्रावधानैः सह राजद्रोह विधिः समापितोऽस्ति। महिलाः शिशवश्च प्राथमिकतायां सन्ति। एतदर्थं 35 उपभागैः सह 13 प्रावधानयुतः एकः विशिष्टाध्यायः संयोजितोऽस्ति। श्रीशाहेनोक्तं यत् सामूहिक दुराचाराय जघन्यापराधत्वात् 20 वर्षाणां कारावासः उत वा आजीवनकारावासस्य दण्डः सुनिर्धारितोऽस्ति। अवयस्कैः सह कृतदुराचाराय मृत्युदण्डः सुनिश्चितोऽस्ति। श्रीशाहेनोक्तं यत् पीडितायाः वक्तव्यं तस्याः एव गृहे स्वजनैः सह संस्थाप्यैव अधिकारिभिः गृहीष्यन्ते। विधिषु आन्तर्जालिकमाध्यमैरपि प्राथमिक्यांकनस्य व्यवस्था वर्तते। श्रीशाहेन विधिविषयेषु दुष्प्रचाराय विपक्षिणोऽपि गर्हिता। तेनोक्तं यत् विषयेऽस्मिन् 9 होराधिकं लोकसभायां 6 होराधिकञ्च राज्यसभायां चर्चा संजातास्ति। भारत पाकिस्तान देशयोः मध्ये ह्यः नवदिल्ली इस्लामाबाद नगरयोः कूटनीतिक माध्यमेन परस्परं निग्रहे स्थितानां नागरिक मत्स्यजीविनां नामानि प्रदत्तानि। महिला क्रिकेट निकष स्पर्धायां चेन्नई नगरस्य एमए चिदम्बरम क्रीडांगणे भारत दक्षिण अफ्रीका देशयोः मध्ये स्पर्धा अभवत्। क्रीडायाः चतुर्थे दिवसे दक्षिण अफ्रीका देशीयेन दलेन समेषां क्रीडकानां हानौ 73-300 धावनांकान् विरच्य 37 धावनांकानां लक्ष्यं प्रदत्तम्। भारतीयदलेन 10 स्तोभैः स्पर्धेयं विजिता। इति वार्ताः।